अथ देवी महात्म्यम् अथ तृतीयोऽध्यायः ऋषिर्वाच निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः सेनानीश्चिक्षुरः गोपात् ययौ जामरस्त्रितशार्दनः Thank you.